वदतु भगिनि.
सम्मितं महोदय, अन्य वदतु कृपया.
अस्तु अस्तु, शुभा भगिनी भवती एव करोति वा अद्य?
आम् महोदय, करोमि. ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः भगिनी. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र कर्मणि प्रयोगः लट्लकारे. तत्र पाठः अस्ति अष्टादश पाठः. तत्र पुटसङ्ख्या अस्ति 116. तत्र वयं तत्र मूलपाठं कृतवन्तः, पठितवन्तः गतवर्गे अपि, तत्र गतवर्गे तस्मात् प्राक् अपि तत्र अभ्यासान् अपि कृतवन्तः. किन्तु केवलं तत्र पुनस्मरणार्थं तत्र उदाहरणानि पश्यामः. तत्र यत् लिखितम् अस्ति तत्र अपि नियमान् पुनरेकवारं तत्र दृष्ट्वा अग्रे सरामः तर्हि. अतः तत्र सूर्यकुमारी भगिनी, तत्र पुटसङ्ख्या 120 अस्ति भगिनी. तत्र अवधेयम् इति मध्यभागे अस्ति, तत् एकवारं पठित्वा किञ्चित् विवृणोतु भगिनि. हा, गीताञ्जलि भगिनि नमस्कारः.
नमस्ते महोदय, क्षम्यतां महोदय.
चिन्ता मास्तु भगिनि, हा पेज् 120 अस्ति भगिनि. हा अस्तु.
अवधेयं,
हा,
वचनसम्बन्धः पुरुषसम्बन्धः च, कर्त्रीप्रयोगः, बालकः श्लोकं पठति, बालकः प्रथमविभक्तिः, श्लोकं द्वितीयविभक्तिः, पठति क्रियापदम्. बालकः कर्तृपदं, श्लोकं कर्मपदं, पठति क्रियापदम्. कर्मणि प्रयोगः, बालकेन श्लोकः पठ्यते, बालकेन तृतीयविभक्तिः, श्लोकः वचनसम्बन्धः पुरुषसम्बन्धः च, प्रथमाविभक्तिः, पठ्यते धातुः, धातुयोगः या योगः ते पठ्यते, धातुः फट् धातु योगः या योगः ते पठ्यते. सम्यक् महोदय.
क्षम्यतां, हा समीचीनं भगिनि. हा, तत्र कर्तृप्रयोगे तत्र किमस्ति, कर्तृपदं प्रथमाविभक्त्यन्तम् अस्ति, कर्मपदं द्वितीयाविभक्त्यन्तम् अस्ति, अपि तत्र क्रियापदं तत्र किं, हा, कर्तृपदम् अनुसृत्य तत्र वचने, वचनविषये अपि पुरुषविषये, हा, कर्तृपदम् अनुसरति, अनुसरति. अस्तु, इदानीं समीचीनम्. अपि तत्र कर्मणि प्रयोगे तत्र
कर्तृपदं
विभक्त्यन्तं भवति, कर्मपदं
प्रथमाविभक्तिः भवति,
विभक्त्यन्तं भवति, हा, विभक्त्यन्तं भवति. अपि तत्र क्रियापदं
कर्मपदम् अनुसृ,
हा, कर्मपदम् अनुसरति. तत्र पुरुषविषये अपि वचनविषये कर्मपदम् अनुसरति, अनुसरति. अपि तत्र तदेव धातुः इति न, तत्र यत् यः धातुः तत्र कर्तृप्रयोगे आसीत् तं धातुं स्वीकृत्य वयं किं कुर्मः, य इति योजयित्वा तदनन्तरम् आत्मनेपदी क्रियापदं कुर्मः, खलु? अतः तत्र पठति इति परस्मैपदी धातुः अस्ति, किं क्रियापदं, किन्तु कर्मणि प्रयोगे सर्वदा तत्र आत्मनेपदी धातुः एव भवति पाठ्यते इति रूपं भवति. अस्तु समीचीनं भगिनि. हा अस्तु इदानीं तत्र रघुवीरान्दो स्वामिः तत्र इदानीं तत्र बालकः श्लोकं पठति इति तत्र बहुवचनरूपं भवति चेत् तत्र कर्तृप्रयोगे किं रूपम् अपि कर्मणि प्रयोगे रूपं कथम् इति एकवारं वदति वा?
बालकः बालकाः श्लोकं पठन्ति कर्तृरूपं महोदय.
अस्तु तत्र इदानीं तत्र किं परिवर्त्य भवान् कस्य परिवर्तनं कृतवान् इति एकवारं वदतु. तत्र कर्तृपदस्य परिवर्तनम् अभवत् अतः तत्र क्रियापदस्य परिवर्तनमपि अभवत् खलु. इदानीं कर्मणि प्रयोगे किं रूपं भवति?
कर्मणि अपि बहुवचनमिति उक्तं खलु.
अस्तु अतः तत्र कर्मणि बालकाः श्लोकं पठन्ति इति न न बालकाः भवतः वाक्यम् आसीत् तत्र बालकाः श्लोकं पठन्ति इति. इदानीं कर्मणि प्रयोगे
बालकैः श्लोकान् वा
इति तत्र तत्र श्लोकः इति आसीत् खलु पूर्वम् श्लोकम् इति आसीत् तत्र प्रथमविभक्तिरूपं किं श्लोकम् इति पदस्य?
श्लोकमेव महोदय.
न न न श्लोकम् इति द्वितीयविभक्त्यन्तं किन्तु प्रथमाविभक्त्यन्तं किम् अस्ति?
श्लोकः.
अतः तत्र सूर्यकुमारी भगिनी उक्तवती खलु तत्र नियमः कः इति तत्र कर्तृपदं तृतीयाविभक्त्यन्तं कर्मणि प्रयोगे अपि कर्मपदं प्रथमाविभक्त्यन्तम् अतः श्लोकम् इति
श्लोकः
पठ्यते एव यतोहि इदानीं क्रियापदं किम् अनुसरति कर्मपदमेव अनुसरति. कर्मपदम् इति इदानीं तत्र वचनं किं कर्मपदस्य?
एकवचनम्
अतः तत्र पठ्यते एव अस्ति अपि पुरुषः प्रथमपुरुषः एव अतः बालकैः श्लोकः पठ्यते इति समीचीनम्. अस्तु इदानीं तत्र द्वितीयविधपरिवर्तनं करोतु महोदय. तत्र बालकः इति एव भवतु एकवचने किन्तु श्लोकमिति स्थाने बहुवचनरूपं स्थापयतु.
बालकः श्लोकाः पठति.
न न श्लोकः इति प्रथमविभक्त्यन्तं रूपं बहुवचने श्लोकाः किन्तु द्वितीयाविभक्त्यन्तं बहुवचने किम् अस्ति श्लोकः इति पदस्य?
महोदय कर्मणि वा
कर्तृप्रयोगे प्रथमतया वदतु.
हा बालकः श्लोकान्
पुल्लिङ्गपदं
श्लोकः श्लोकाः.
हा सत्यं प्रथमविभक्तिः. इदानीं द्वितीयाविभक्ति श्लोकं बहुवचने
श्लोकान्.
हा समीचीनम् अतः
बालकः श्लोकान्
पठति यतोहि बालकः एव अस्ति. बालकः पठति किं पठति श्लोकान् पठति. अस्तु इदानीं कर्मणि प्रयोगे इदानीं किं भवति? बालकः एव अस्ति
एकवचने
बालकेन.
तर्हि द्वितीय
इदानीं कर्मपदं किम् आसीत् श्लोकान् इति आसीत्
श्लोकाः.
इदानीं श्लोकाः समीचीनं पठ्यन्ते बहु समीचीनं. हा बालकेन श्लोकाः पठ्यन्ते उत्तमं महोदय. हा अस्तु समीचीनं. हा इदानीं तत्र गीताञ्जलि भगिनि इदानीं तत्र अन्यत् स्वीकुर्मः तत्र बालकः तत्र चाकलेहं खादति इति बालकः चाकलेहं खादति इति तत्र हा कर्मणि प्रयोगरूपं वदतु.
आं महोदय बालकः चाकलेहं खादति इति कर्तरि बालकेन चाकलेहः पुल्लिङ्गः
पुल्लिङ्गपदं
चाकलेहः खाद्यते
हा चाकलेहः खाद्यते इदानीं बहुवचने वदतु तत्र कर्तृपदं बहुवचने कर्मपदम् एकवचने एव
हा कर्तरि बहुवचनम् अस्ति चेत् बालकाः चाकलेहान्
न एकमेव तत्र परिवर्तनं करोतु अतः बालकाः चाकलेहं
बालकाः चाकलेहं खादन्ति कर्मणि अस्ति चेत् बालकैः चाकलेहः खाद्यन्ते
तत्र कर्मपदम् अनुसरति वा कर्तृपदम् अनुसरति
खाद्यते
खाद्यते हा इदानीं हा इदानीं बालकः एव अस्ति किन्तु तत्र तस्य जन्मदिनम् अस्ति अतः तत्र चाकलेहाः सन्ति तस्य पार्श्वे इदानीं बालकः चाकलेहाः तत्र तत्र द्वितीयविभक्त्यन्तं किम् अस्ति चाकलेहाः
बालकौ
न न बालकः बालकः द्वितीयविभक्त्यन्तं तत्र चाकलेहः एकवचने बहुवचने चाकलेहाः
चाकलेहान्
हा अस्ति अतः बालकः बालकः
चाकलेहान् खादन्ति
खादति खादति
बालकाः
न न एक एकः एव बालकः सः अनेकान् चाकलेहान् खादति हा
ओ अस्तु अस्तु बालकः चाकलेहान्
खादति इदानीं तस्य तस्य
बालकेन चाकलेहाः खाद्यन्ते
खाद्यन्ते हा उत्तमं समीचीनम् अस्तु इदानीं रघुपतिमहोदय तत्र बालकः श्लोकः आसीत् इदानीं तत्र हा बालः पाठं पठति इति
बालः पाठं पठति बालेन पाठः पठ्यते बालैः अस्तु
बालैः बालैः
बालः पाठान् पठति बालेन पाठाः पठ्यन्ते
इदानीं बालाः पाठं पठन्ति
पाठ
पाठः अपि सर्वं तत्र चतुर्विधं कर्तुं शक्नुमः अस्तु महोदय
बालैः पाठः पठ्यते बालैः पाठाः पठ्यन्ते
इति समीचीनं महोदय अतः तत्र चतुर्विधं तत्र कर्तृपदम् एकवचने अथवा बहुवचने कर्मपदम् एकवचने अथवा बहुवचने अस्तु समीचीनं
बालेन पाठौ पठ्येते
पठ्येते हा समीचीनं समीचीनम् अतः तत्र तत् कुर्मश्चेत् किं महोदय तत्र नवविधं भवति अतः प्रायश चतुर्विधं सरलम् अस्ति इति कृत्वा
एव कार्यं व्यवहारे तादृश न भवति
अस्तु बहुवचनं स्वीकुर्मः तत्र हा मनसि स्थापितं भवति अस्तु शुभ भगिनी भवती अपि करोति वा अहं वाक्यं वदामि अस्तु अस्तु अतः तत्र किं स्वीकुर्मः तत्र हा बालः लेखनीं लेखनीं करोति हा स्वीकरोति
अस्तु महोदय बालः लेखनीं स्वीकरोति इति कर्तरि प्रयोगे
तत्र करोति इति जानीमः वा एतावत् करोति क्रू धातुः क्रियते 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 हा हा क्रियते इति अस्ति अस्तु अस्तु हा बालः
क्रियते इति भवति
हा स्वीक्रियते हा बालकः लेखनीं
लेखनीं स्वीकरोति
हा
स्वीकरोति बालकेन लेखनी तत्र लेखनी इति लेखनीं द्वितीया अस्ति प्रथमः भवति चेत् लेखनी इति एव भवति बालकेन लेखनी स्वीक्रियते
स्वीक्रियते समीचीनं हा इदानीं तत्र कर्मपदं बहुवचने स्थापयतु
लेखन्यः भवति बालकः लेखन्यः एव
लेखनीः लेखनीः
क्षम्यतां बालकः लेखनीः स्वीकरोति बालकेन
नदी नद्यो नद्यः
बालकेन लेखन्यः स्वीक्रियन्ते
स्वीक्रियन्ते समीचीनं हा इदानीं लेखनी एव लेखनीम् इति एव स्थापयतु किन्तु तत्र बालकाः इति
बालकाः लेखनीं स्वीकुर्वन्ति
हा स्वीकुर्वन्ति हा
बालकैः लेखनी स्वीक्रियते
स्वीक्रियते एव समीचीनं भगिनी हा इदानीं तत्र अन्तिम तत्र बालकाः लेखनीः
बालकाः अत्र
द्वयमपि बहुवचने करोतु
बालकाः लेखनीं अस्तु प्रथमं बालकाः लेखन् क्षम्यतां महोदय लेखनी नदी नदीः बालकाः लेखनीः स्वीकुर्वन्ति बालकैः लेखन्यः स्वीक्रियन्ते
स्वीक्रियन्ते समीचीनं भगिनी अस्तु उत्तमं हा अतः तत्र एषः एव नियमः तत्र कर्तृप्रयोगात् कर्मणि प्रयोगं तत्र परिवर्तनम् इच्छामश्चेत् तत्र कर्तृपदस्य प्रथमाविभक्त्यन्तं यदस्ति तत्र तृतीयाविभक्त्यन्तं भवति कर्मपदस्य द्वितीयाविभक्त्यन्तं यदस्ति तत्र प्रथमाविभक्त्यन्तं भवति अपि तत्र क्रियापदस्य परिवर्तनमपि भवति तत्र पठिति अस्ति चेत् तत्र य इति योगः कृत्वा आत्मनेपदी क्रियापदस्य रूपं स्थापयामः अतः तत्र पठति इति स्थाने पठ्यते करोति इति स्थाने क्रियते इति एतादृशं भवति अस्तु समीचीनम् अस्तु इदानीं तत्र अग्रे सरामः तत्र इदानीं तत्र वयं यत् पूर्वमासीत् तत् सर्वं कृतवन्तः इति मन्ये तत्र पाठः पाठं पठितवन्तः अपि तत्र उदाहरणानि यानि सन्ति तत्र पेज् 118 मध्ये तदपि तानि अपि पठितवन्तः अतः अत्र साक्षात् अभ्यासः यः अस्ति तम् आरम्भं कर्तुं शक्नुमः इति मन्ये अतः तत्र प्रथमतया तत्र किम् अस्ति तत्र क्रियापदस्य परिवर्तनं कथम् इति तस्मिन् विषये तत्र प्रथम अभ्यासः अस्ति अस्तु अतः तत्र सूर्यकुमारी भगिनी आरम्भं करोति वा तत्र 121 मध्ये प्रथम अभ्यासः
पुरुष क्रियापद सम्बन्धं
तत् कृतवन्तः इति मन्ये भगिनी तत्र अधोभागे तत्र केवलम् अवधेयम् इति भवती पठितवती तद् द्वितीयवारं पठामः किन्तु पठितवन्तः तद् अवधेयं पठितवन्तः अपि तत्र कर्मणि प्रयोगे तत्र सः दृश्यते त्वं दृश्यसे अहं दृश्ये इति तत् कृतवन्तः तस्य अभ्यासः अपि इदानीं कुर्मः अत्र हा
अभ्यासः क्रियापदैः सह मूलधातवः अपि निर्दिष्टाः सन्ति तेषां यथा निर्देशं कर्मणि रूपं लिखत पठति पठतु प्रथमपुरुष पठ्यते जपति जप्यते
जप्यते इति समीचीनं भगिनि इदानीं एतत् कुर्मः तत्र पठति पठ्यते जपति जप्यते इति इदानीं तत्र बालः किं तत्र तत्र किं बालः तत्र श्लोकम् अथवा तत्र श्लोकं जपति अथवा किं मन्त्रं जपति इति स्वीकुर्मः
बालः मन्त्रं जपति
हा इदानीं कर्मणि प्रयोगे किं भवति
बालेन मन्त्रं जप्यते
हा अस्तु हा इदानीं जप्यते हा तत्र मन्त्रः इति अस्ति मन्त्रः मन्त्रः जप्यते हा मन्त्रः जप्यते 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 हा इदानीं बहुवचने बालाः इति बालाः मन्त्रं मन्त्रान्
जपन्ति
जपन्ति हा इदानीं कर्मणि प्रयोगे
बालैः मन्त्रः जप्यते
मन्त्राः
बालैः मन्त्राः जप्यन्ते
जप्यन्ते इति समीचीनं हा अस्तु इदानीं तत्र रघुवीरन्दस्वामी तत्र त्वम् इति मध्यमपुरुषरूपं स्वीकुर्मः इदानीं तत्र जपति इति एव तत्र त्वं मन्त्रं जपति जपसि हा
महोदय
हा
जपति
जपसि जपसि हा जपसि
त्वं मन्त्रं जपसि
हा इदानीं कर्मणि रोगः कर्मणि प्रयोगः
कर्मणि त्वया मन्त्रं जप्यते
मन्त्रः आम् त्वया मन्त्रः जप्यते अस्तु इदानीं तत्र हा मन्त्रः पुल्लिङ्गे अस्ति महोदय हा इदानीं तत्र द्वितीयविभक्तिरूपं स्थापयितुं तत्र पूर्वस्मिन् पुटे तत्र सूर्यकुमारी भगिनी उक्तवती खलु तत्र मध्यमपुरुष उत्तमपुरुष न कृतवन्तः अतत्र बालेन त्वं दृश्यसे बालेन युवां दृश्येते बालेन यूयं दृश्यद्वे इति तादृशम् अत्र करोतु तत्र ओ अस्तु 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 त्वम् इति स्थापितवन्तः अस्तु हा अत्र किमपि न अन्यत् किमपि न कर्तुं शक्नुमः अस्तु महोदय तत्र त्वं तत्र त्वया इति एकवचने तत्र बहुवचने किमस्ति जानाति वा महोदय
त्वं युवां यूयं
तृतीयविभक्ति त्वया
यूयं मन्त्रं
हा यूयं मन्त्रं जपन् जप
मन्त्रं
जपसि पठसि पठतः पठथ
जपथ
जपथ
जपथ यूयं जपथ
इदानीं तत्र कर्मणि रूपं
कर्मणि रूपं त्वम् अस्ति खलु तर्हि त्वया तैः तैः वा
युष्माभ्यां प्रायशः युष्माभ्यां युष्माभिः युष्मभ्याम् इति युवाभ्यां
युवाभिः किं महोदय तृतीय बहुवचनं
युष्माभिः
युष्माभिः
बहुवचने
युष्माभिः युष्माभिः मन्त्रं युष्माभिः मन्त्रः भवान् अवदत् पुल्लिङ्गमिति युष्माभिः मन्त्रः जप्यते
हा किमर्थं जप्यते किमर्थं तत्र
कर्मणि क्रियापदं कर्मपदम् अनुसरति
पुरुषविषये कर्मपदम् अनुसरति कर्मपदं तु प्रथमपुरुषः अस्ति अतः तत्र युष्माभिः अस्ति किन्तु मन्त्रः इति प्रथमपुरुषः अस्ति अतः तत्र जप्यते इति एव रूपं समीचीनं महोदय अस्तु इदानीं
द्वयोः अपि बहुवचनरूपं
वा तदपि कर्तुं तत्र अतः तत्र युष्माभिः
युष्माः मन्त्राः पठ्यन्ते
न
जप्यन्ते
जप्यन्ते समीचीनं महोदय हा अस्तु इदानीम् अस्तु गीताञ्जलि भगिनी तत्र आप्नोति इति करोतु तत्र
आप्नोति तत्र आप् धातु अस्ति आप्यते इति
हा अस्तु तत्र अतः तत्र एतत् स्वीकुर्मः तत्र बालकः अस्तु तत्र किमपि स्थापयामः भगिनि तत्र बालकः तत्र किं तत्र लेखनी लेखनीं प्राप्नोति प्राप्नोति इति स्वीकुर्मः आप्नोति इति अस्ति किन्तु प्रा इति स्थापयामः तत्र प्राप्नोति बालकः लेखनीं अथवा बालिका बालिका इति स्त्री स्त्रीलिङ्गपि तस्यापि हा बालिका लेखनीं प्राप्नोति
महोदय बालिका लेखनीम् आप्नोति
प्राप्नोति प्राप्नोति लेखनीं प्राप्नोति
प्राप्नोति इति तु कर्तरि एकवचनम् अस्ति तदेव कर्मणि अस्ति चेत् बालिकया लेखनी प्राप्यते
प्राप्यते हा आप्यते प्राप्यते अस्तु समीचीनं हा
द्विवचनम् अस्ति चेत् बालिके लेखनीं
हा भगिनी तत्र केवलं बहुवचनं करोतु भगिनी द्विवचने मास्तु इदानीं हा बालिकाः हा बालिकाः इति करोतु हा
लेख एकमेव बालिकाः लेखनीं प्राप्नुवन्ति कर्तरि तत्र कर्मणि अस्ति चेत् बालिकाभिः लेखनी प्राप्यन्ते
न कर्मपदस्य वचनं किम्
क्षम्यता महोदय बालिकाभिः लेखनी प्राप्यते
प्राप्यते हा इदानीं द्वयमपि बहुवचनरूपं स्वीकरोतु बालिकाः
बालिकाः लेखनीः बालिकाः लेखनीः
प्राप्नुवन्ति
प्राप्नुवन्ति कर्मणि अस्ति चेत् बालिकाभिः लेखनीः
न न इदानीं
लेखन्यः प्राप्यन्ते
हा प्राप्यन्ते समीचीनं भगिनि हा उत्तमम् अस्तु अग्रे इदानीं तत्र शोभा भगिनी अग्रिममस्ति तत्र पश्यति इति दृश्यते इति भवति तत्र दृश् इति अस्तु तत्र एतत् कुर्मः तत्र बालिका लेखनीं पश्यति इति
बालिका लेखनीं पश्यति बालिकया लेखनी दृश्यते
दृश्यते हा इदानीं तत्र बहुवचनरूपं बहुवचनरूपम् इति स्थापयित्वा वदतु
बालिका लेखनीः पश्यति बालिकया लेखन्यः दृश्यन्ते
हा समीचीनं हा
बालिकाः लेखनीः पश्यन्ति बालिकाभिः लेखन्यः दृश्यन्ते
समीचीनं हा अस्तु इदानीं रघुपतिमहोदय तत्र बालिका त्वां पश्यति इति
बालिका त्वं पश्यति
बालिका त्वां त्वाम् इति खलु महोदय त्वां
बालिका त्वां पश्य
त्वां पश्यति
द्वितीया भक्ति अस्ति बालिका त्वां पश्यति बालिका बालिका यूयं पश्यति खलु त्वां
त्वां हा तत्र त्वां
त्वां युव
युष्मान् इति तत्र त्वां युवां युष्मान् इति
युष्मान् क्षम्यतां
युष्मान्
बालिका युष्मान्
पश्यति
पश्यति इति अस्ति इदानीम् एकवचने कर्मणि प्रयोगे बालिकया त्वं बालिकया त्वं दृश्यसे इति बालिकया त्वं दृश्यसे इति भवति
सत् समीचीनं महोदय बालिकया त्वं दृश्यसे
दृश्यसे इदानीं बालिकया बहुवचने
बहुवचने करोतु तत्र
बालिकया यूयं दृश्यद्वे इति भवति
हा दृश्यद्वे इति बालिकया यूयं दृश्यद्वे इति समीचीनं हा इदानीं समीचीनं महोदय अस्तु हा इदानीं तत्र अग्रे सूर्यकुमारी भगिनी इदानीं तत्र बालिका मां पश्यति
बालिका मां पश्यति
अपि बालिका अस्मान् पश्यति
बालिकेन
न बालिका इति अस्ति स्त्रीलिङ्गे
बालिकया अहं दृश्ये
हा समीचीनं दृश्येते तत्र रूपाणि एकवारं वदतु दृश्येते दृश्यते
दृश्यते दृश्येते दृश्यन्ते मध्यमपुरुष दृश्यसे दृश्येते दृश्यद्वे उत्तमपुरुष दृश्ये दृश्यावहे दृश्यामहे
हा इति उत्तमं हा अस्तु इदानीं तत्र बालिकया अहं दृश्ये अपि बहुवचने बालिकया
बालिकया वयं दृश्यावहे
दृश्यामहे
दृश्यामहे
हा द्विवचने वकारः बहुवचने मकारः हा दृश्यामहे समीचीनं हा अस्तु उत्तमम् अस्तु इदानीम् अग्रे तत्र गीताञ्जलि भगिनी तत्र अग्रे अस्ति तत्र जानाति इति अस्तु तत्र जानाति तत्र सः सः न इदानीं तत्र अन्यत् किमपि स्वीकुर्मः तत्र कविः हा तत्र कविः किं कवितां हा अस्तु अस्तु कविः कवितां जानाति इति हा
कविः कवितां जानाति कवया
न न न कविः कविः हा
कविः अस्तु एकनिमेषः महोदय कविः तु पुंलिङ्गमस्ति
हरि हरिवत् हरिवत् पुल्लिङ्गपदं हा
हरिणा कविता ज्ञायते
हा ज्ञायते हा समीचीनं ज्ञायते कविना कविता ज्ञायते समीचीनम् इदानीं तत्र कविता इति स्थाने कविः कवितां जानाति इदानीं बहुवचनरूपं स्थापयतु तत्र कर्मपदे कविः
अस्तु कविः कविताः कविताः जानाति
एव समीचीनं हा
कर्मणि अस्ति चेत् एकमेव कवि अस्ति चेत् कविना कवि कविताः ज्ञायन्ते
ज्ञायन्ते समीचीनं हा ज्ञायन्ते समीचीनम् इदानीं तत्र अनेकाः कवयः सन्ति अतः कवयः कविताः
कवयः कविताः जानन्ति कविभिः कविताः कविताः ज्ञायन्ते
ज्ञायन्ते इति समीचीनम् अस्तु इदानीं तत्र केवलं तत्र ज्ञायते इति अस्ति तत्र ज्ञायते इति प्रथमपुरुष एकवचनं तत्र नवरूपाणि वदतु तत्र क्रियापदस्य ज्ञायते
ज्ञायते ज्ञायेते ज्ञायन्ते ज्ञायसे ज्ञायेथे ज्ञायध्वे
ज्ञायद्वे ज्ञायद्वे
ज्ञाये ज्ञायावहे ज्ञायामहे
हा इति उत्तमम् अस्तु हा इदानीं शोभा भगिनी तत्र कविः त्वां जानाति
कविः त्वां जानाति कविः कविना त्वां तत्र त्वं कविना त्वं ज्ञायते
तत्र तत्र ज्ञायते इति पुरुषः कः तत्र
ओ त्वं त्वं क्षमतां ज्ञायसे
हा कविना त्वं
ज्ञायसे
ज्ञायसे समीचीनम् इदानीं तत्र कविः तत्र युष्मान् जानाति
कविः युष्मान् बहुवचने कविः युष्मान् जानाति कविना तत्र पुनः तत्र द्वितीय कविना
युवां
यूयं
यूयं
यूयं जानद्वे
जानद्वे समीचीनं हा जानद्वे हा जानद्वे हा इदानीं तत्र केवलं वदतु तत्र तत्र उत्तमपुरुषे किं भवति हा अस्तु तद् न केवलं तत्र उत्तमपुरुषे किं भवति तत्र ज्ञायते ज्ञायेते ज्ञायन्ते
ज्ञायते ज्ञायेते ज्ञायन्ते मध्यमपुरुषे ज्ञायसे ज्ञायेथे ज्ञायध्वे उत्तमपुरुषे ज्ञाये ज्ञायावहे ज्ञायामहे
हा अतः तत्र इदानीं तत्र कविः मां जानाति तत् किं भवति
हा कविः मां जानाति कविना अहं जाने
ज्ञाये ज्ञाये चिन्ता मास्तु हा अपि तत्र कविः अस्मान् जानाति तत्र
कविः अस्मान् जानाति कविः अस्मान् ज्ञायामः
न न कविना
कविना कविः अस्मान् जानाति कविना वयं वयमस्ति चेत् बहुवचनं भवति ज्ञायामहे
ज्ञायामहे इति समीचीनं भगिनि अतः तत्र नियमः तु सुलभः एव अस्ति तत्र किन्तु यदि तत्र अभ्यासः भवति तत्र साक्षात् तत्र सावधानम् अपेक्षितमस्ति तावदेव सरलमस्ति किन्तु तत्र वारं वारं कुर्मश्चेत् तत्र आटोमेटिक् भवति नो चेत् तत्र किं किम् इति दृष्ट्वा एव वक्तव्यमस्ति चिन्ता मास्तु सत्यं भगिनि हा अस्तु समीचीनम् इदानीं तत्र अग्रे सरामः तत्र रघुवीरेन्द्र ओ रघुपतिमहोदय इदानीं तत्र इच्छति इति कुर्मः तत्र तत्र प्रथमतया तत्र इच्छति इति क्रियापदस्य तत्र कर्मणि रूपम् एकवारं वदतु महोदय
अस्तु इष्यते इष्यते इष्येते इष्यन्ते इष्यसे इष्येते इष्यध्वे इष्ये इष्यावहे इष्यामहे इति
हा इदानीम् अस्तु इदानीं तत्र देवः तत्र देवः तत्र बालकम् इच्छति इति
हा देवः बालकम् इच्छति देवेन देवेन बालकः इष्यते इति भवति
हा हा अपि बहुवचने देवः बालकान् इच्छति
बालकान् इच्छति देवेन बालकाः इष्यन्ते
इष्यन्ते हा इदानीं तत्र देवः त्वाम् इच्छति
हा बालक देवः त्वां त्वाम् इच्छति एक इति इदानीं देवेन त्वम् इष्यसे इति
इष्यसे हा देवेन त्वम् इष्यसे अपि तत्र बहुवचने देवः
देवः युष्मान् इच्छति इति इदानीं देवेन यूयं इष्यध्वे इति भवति
इष्यध्वे इति भवति समीचीनं महोदय हा अस्तु इदानीं रघुवीरेन्द्रस्वामी तत्र देवः माम् इच्छति इति तत् करोति वा
देवः माम् इच्छति
कर्मणि रूपं
देवेन
तत्र इच्छति इति क्रियापदं तत्र कर्मणि प्रयोगे रूपं किं भवति इष् इति धातुः अतः रूपं किं भवति
इच्छ्येते महोदय
इष्यते इष्यते इष् इति धातुः इच्छति इति क्रियापदं किन्तु साक्षात् धातुः इष् धातुः मूर्धन्यषकारः अतः तत्र हा इष्यते इति भवति यकारः योगः खलु तदनन्तरम् आत्मनिपदे हा अतः तत्र क्रियापदं किं भवति इष्यते हा तत्र नवरूपाणि एकवारं वदतु इष्यते
इष्यते इष्येते इष्यन्ते इष्यसे ते
इष्येते इष्यद्वे
इष्ये इष्यावहे इष्यामहे
हा समीचीनं तत्र अन्तिमं किम् आसीत् इष्ये इष्यावहे इष्यामहे समीचीनं हा इदानीं तत्र देवः माम् इच्छति
देवेन अहम् इष्ये
हा उत्तमं महोदय अस्तु इदानीं तत्र देवः अस्मान् इच्छति
देवः अस्मान् देवः देवेन वयम् इष्यामहे
इष्यामहे समीचीनं महोदय अस्तु तावदेव हा अस्तु अस्तु अग्रे सूर्यकुमारी भगिनी इदानीं तत्र जिघ्राति इति अस्ति तत्र केवलम् इदानीं तत्र क्रियापदस्य नवरूपाणि वदतु भगिनि
कर्तृत्वयकर्मणि
कर्मणि कर्मणि घ्रा इति धातुः
ग्रायते ग्रायेते ग्रायन्ते ग्रायसे ग्रायेथे ग्रायद्वे ग्राये ग्रायावहे ग्रायामहे
हा इदानीं तत्र तत्र सः त्वम् अहम् इति तत्र स्थापयित्वा वदति एकवारं
सः
ग्रायते सः ग्रायते पूर्णवाक्यं मास्तु केवलं तत्र हा
सः ग्रायते
तौ
ग्रायेथे ते ग्रायन्ते
हा इदानीं त्वं
त्वं ग्रायसे युवां ग्रायेथे यूयं ग्रायद्वे अहं ग्राये वयं ग्रायावहे
आवाम् आवाम् आवां ग्रायावहे
वयं ग्रायामहे
हा इति अस्तु समीचीनं हा अस्तु भगिनि अस्तु हा इदानीं तत्र अग्रे गीताञ्जलि भगिनि इदानीं तत्र सहते इति तत्र नवरूपाणि वदतु तत्र कर्मणि प्रयोगे
सहते ओ अहं किं शृणोमि महोदय सहतौ ते
सहतौ तेन सहतौ ते इति क्रियापदं नास्ति
सह्यते सह्येते सह्यन्ते सह्यते सह्येथे सह्यद्वे सह्ये सह्यावहे सह्यामहे
हा इदानीं तत्र सा इति स्थापयित्वा तत्र सा
अस्तु सा कर्म
सह्येते न कर्मपदमेव तत्र सा सह्येते
अस्तु सा
कर्मणि प्रयोगः अस्ति अतः तत्र कर्मपदं प्रथमविभक्तौ एव भवति खलु अतः तत्र सा सह्येते
कर्तृपदं नास्ति तत्र
तत् पूर्णवाक्यं नास्ति केवलं तत्र कर्मपदस्य तत्र किमपि भवतु इति अतः तत्र सा सह्येते
सा सह्येते ते सह्येते ताः सह्यन्ते
त्वं
त्वं सह्यसे त्वं युवां सह्येथे यूयं सह्यद्वे अहं
न न अहम् अहम् अहं सर्वं प्रथमविभक्त्यन्तम्
अहं सह्ये आवां सह्यावहे वयं सह्यामहे
हा इति तावदेव अस्तु समीचीनम् अस्तु इदानीम् अग्रे तत्र शोभा भगिनी तत्र वन्दते इति नवरूपाणि एकवारं वदति वा
आं महोदय वन्दते इत्यस्य वन्द्यते वन्द्येते वन्द्यन्ते वन्द्यसे वन्द्येथे वन्द्यध्वे वन्द्ये वन्द्यावहे वन्द्यामहे
हा इदानीं तत्र सः इति उपयुज्य सः वन्द्ये
सः वन्द्यते
हा सः वन्द्यते हा सत्यं भगिनि हा
सः वन्द्येते क्षमतां सः वन्द्यते तौ वन्द्येते ते वन्द्यन्ते त्वं वन्द्यसे युवां वन्द्येथे यूयं वन्द्यध्वे अहं वन्द्ये आवां वन्द्यावहे वयं वन्द्यामहे
हा इति समीचीनं भगिनि हा अस्तु अग्रे रघुवरेन्द्रस्वामी इदानीं तत्र सेवते इति करोति वा सेब् इति धातुः नवरूपाणि एकवारं वदति वा
सेव्यते 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 सेव् येते सेव्यन्ते सेव्यसे सेव्येथे सेव्यद्वे व्ये सेव्यावहे सेव्यामहे
हा इदानीं तत्र सा इति स्थापयतु तत्र सा सेव्यते
सा सेव्यते ते सेव्येथे ताः सेव्यन्ते त्वं सेव्यसे युवां सेव्येथे यूयं सेव्यद्वे
सेव्यद्वे हा
अहं सेव्ये आवां सेव्यावहे वयं सेव्यामहे
हा इति हा तावदेव अस्तु रघुपतिमहोदय अग्रे तत्र वीक्षते इति धन्यवादः
वीक्षते वीक्षते वीक्ष्येते वीक्ष्यन्ते वीक्ष्यते वीक्ष्येते वीक्ष्यद्वे वीक्ष्ये वीक्ष्यावहे वीक्ष्यामहे इति अस्ति
इदानीं तत्र केवलं तत्र सः तौ ते इति
सः वीक्ष्यते सः वीक्ष्यते तौ वीक्ष्येते तौ वीक्ष्येते ते इति भवति वीक्ष्यन्ते अग्रे द्विवचने खलु
न इदानीं तत्र त्वम् इति
त्वं वीक्ष्यसे युवां वीक्ष्येथे यूयं वीक्ष्यध्वे भवति अहं वीक्ष्ये आवां वीक्ष्यावहे वयं वीक्ष्यामहे
इति समीचीनं महोदय अस्तु इदानीं तत्र अन्तिमं तत्र लभ् इति अस्ति तत्र लभ्यते इति तत् त्यजामः इदानीं तत्र यत् पूर्वस्मिन् पुटे आसीत् तत्र पश्यामः तत्र बालेन सह दृश्यते तौ दृश्यते इति अस्ति तद् एकवारं तत्र कुर्मः तत्र सुरकुमारी भगिनी तत्र बालेन सह दृश्यते इति तत्र कर्तृरूपं किम् अस्ति भगिनि
बालः बालः तं पश्यति
हा बालः तं पश्यति अस्तु इदानीं तत्र गीताञ्जलि भगिनी तत्र बालेन तौ दृश्यते कर्तृरूपं किम् अस्ति
बालकः तौ पश्यति
पश्यति समीचीनम् अस्तु शोभा भगिनी अत्र इदानीं तत्र पूर्वस्मिन् पुटे 120 मध्ये एतत् सर्वम् अस्ति तत्र बालेन ते दृश्यन्ते कर्तृरूपं किम् अस्ति
ते तत्र तान् बालः तान् पश्यति
बालः तान् पश्यति समीचीनम् अस्तु इदानीं रघुनन्दस्वामी इदानीं तत्र बालेन त्वं दृश्यसे कर्तृरूपं किम् अस्ति
बालः त्वां पश्यति
त्वां पश्यति समीचीनम् अस्तु रघुपतिमहोदय बालेन युवां दृश्येते
बालेन बालाः युष्मान् पश्यन्ति इति भवति
युवाम् इति महोदय द्विवचने
द्विवचने सम्यक् द्विवचने द्विवचने खलु यु द्विवचने बालाः वा
बालेन बालेन युवां दृश्येते इति अस्ति
बालेन युवां दृश्येते बालः बालः तत्र तौ खलु तत्र
युवामेव
हा युवामेव बालः युवां पश्य पश्यति पश्यति इति हा अस्तु समीचीनम् अस्तु अग्रे तत्र सूर्यकुमारी भगिनी इदानीं तत्र बालेन यूयं दृश्यद्वे कर्तृरूपं
बालः त्वं युवां यूयं युष्माभिः
युष्मान् युष्मान्
युष्मान् दृश्यति पश्यति
पश्यति बालः युष्मान् पश्यति अस्तु गीताञ्जलिभगिनी अग्रे बालेन अहं दृश्ये
बालकः मां बालकः मां पश्यति एव
पश्यति हा बालः मां पश्यति समीचीनं हा शोभगिनी इदानीं तत्र बालेन आवां दृश्यावहे
बालेन आवां दृश्या
वहे
वहे बालः आवामेव तत्र आवां पश्यति
आवां पश्यति समीचीनं हा अस्तु रघुवीरेन्द्रस्वामी इदानीं तत्र बालेन वयं दृश्यामहे
बालः अस्माभिः पश्यति
अस्मान् अस्मान्
अस्मान् पश्यति
हा अस्माभिः तृतीयविभक्त्यन्तम् अस्मान् द्वितीयविभक्त्यन्तं हा अस्तु बालः अस्मान् पश्यति अस्तु समीचीनम् अस्तु अतः तत्र कर्त्रीतः कर्मणि कर्मणितः कर्त्री द्वयमपि करणीयमस्ति हा अस्तु इदानीम् अग्रे सरामः तत्र रघुपतिमहोदय अग्रिम अभ्यासः आरम्भं कुर्मः
हा अधस्तन तदेव खलु
हा तद् तदेव महोदय द्वितीयाभ्यास अग्रिमपुटे हा
क्षम्यतां किञ्चित् ध्वनिः अस्ति अत्र अद्य अधस्तन कर्तरिप्रयोगवाक्यानि कर्मणि प्रयोगवाक्यत्वेन परिवर्त्य लिखत कर्तरिप्रयोग अस्ति उदाहरणे अर्जुनः प्रश्नं पृच्छति अर्जुनेन प्रश्नः पृच्छते इति अस्ति वैश्वानरः अन्नं पचति वैश्वानरेण अन्नं पच्यते
वैश्वानरे तत्र
वैश्वानरेण भवति वैश्वानरेण नरेण नरेण इति अन्ते नास्ति वैश्वानरेण अन्नं पच्यते
पच्यते
इति नपुंसकलिङ्गे प्रायः
इति मन्ये महोदय अहम् अन्नम् इति एव अन्नम् इति एव चिन्तयामि प्रायश तत्र अन्नम् इति तत्र नपुंसकलिङ्गे एव तत्र अन्नं पच्यते वैश्वानरेण अन्नं पच्यते समीचीनं महोदय अस्तु अग्रे सूर्यकुमारी भगिनी अग्रे
सः राज्यं न इच्छति इष्दातु तेन राज्यं न इष्यते
हा तेन राज्य
राज्यमपि नपुंसकलिङ्ग
तत्र राज्यः इति राज्यं हा तत्र नपुंसकलिङ्गे अस्ति भगिनि हा नपुंसकलिङ्गे राज्यमेव अतः तत्र तेन राज्यं न इष्यते तेन राज्यं न इष्यते समीचीनम् अस्तु अग्रे शोभा भगिनि
एषः विषयं जानाति तत्र एषः अतः तेन विषयम् इत्यस्य विषयः तेन विषयः ज्ञायते
एतेन एतेन
एतेन
विषयः
ज्ञायते
ज्ञायते समीचीनं अस्तु अग्रे गीताञ्जलि भगिनि
तत्र अभिमन्युः सन्देशं प्रेषयति प्रेष अस्ति तत्र अभिमन्युः इति गुरु वत् अस्ति अभिमन्युना सन्देशः प्रेष्यते
समीचीनं हा अभिमन्युः सन्देशं प्रेषयति अभिमन्युना सन्देशः प्रेष्यते तत्र अभिमन्युः त्वां प्रेषयति अस्ति चेत् किं भवति
अभिमन्युना त्वं प्रेष्यते
प्रेष्यसे
त्वं प्रेष्यसे
त्वम् अस्ति चेत् प्रेष्यसे हा समीचीनम् अस्तु रघुवीरेन्द्रस्वामी अग्रिमम् यज्ञः
यज्ञः पापं क्षालयति यज्ञेन पापमेव खलु नपुंसकलिङ्गं
नपुंसकलिङ्गपदं सत्यं महोदय
यज्ञेन पापं क्षाल्यते
यज्ञेन पापं क्षाल्यते इदानीं तत्र बहुवचने यज्ञः किं भवति पापमिति बहुवचनरूपं
पापानि
हा यज्ञः पापानि
यज्ञः पापानि क्षालयति यज्ञेन पापानि एव खलु महोदय यज्ञेन पापानि क्षाल्यन्ते
हा क्षाल्यन्ते इति समीचीनं महोदय अस्तु रघुपतिमहोदय अग्रे
हा महोदय अहं कथां शृणोमि इति अस्ति मया कथा श्रूयते
हा मया कथा श्रूयते अपि बहुवचने कथामिति स्थाने
अस्तु मया कथाः श्रूयन्ते इति भवति
श्रूयन्ते हा मया कथाः श्रूयन्ते अपि अहं कथाः
अहं कथाः शृणोमि इति
शृणोमि इति कर्त्री समीचीनं महोदय हा अस्तु अग्रे सूर्यकुमारी भगिनी
महोदय सः हतं मन्यते सः हतं मन्यते तेन हतः मन्ये
न तेन हतः इति पुरुषः कः हतः इति प्रथमपुरुषः वा द्वितीयपुरुषः वा उत्तमपुरुषः वा
हतः
तत्र क्रियापदं किं भवति
मन्ये
किमर्थं मन्ये
अहं
हतः एव इति हतः इति पदस्य पुरुषं दृष्ट्वा एव तत्र क्रियापदस्य रूपं भवति खलु भगिनि भवती एव तत्र पठितवती अद्य आरम्भे मन्यते एव तत्र यतोहि तत्र मन् इति धातुः
नत्पनिपदी रूपं दिवादिगणीय कर्मणि प्रयोग अपि कर्तरिप्रयोगस्य समानमेव रूपाणि भवन्ति
अतः तत्र मन्यते एव
आत्मनेपदिदातु
मन्यते इति अस्ति खलु आत्मनेपदिदातु
तुल्यरूपमेव कर्तरि कर्मणि
समानरूपम् अस्ति भगिनि यतोहि तत्र मन् इति धातुः कर्तृप्रयोगे मन्यते इति अस्ति कर्मणि प्रयोगे तत्र मन् इति धातुः यकारः योजयतु मन्य इति भवति तदनन्तरं ते इति योजयतु मन्यते इति अतः तत्र समानरूपम् अस्ति सः हतं मन्यते तेन हतः मन्यते इति इदानीं तत्र बहुवचनरूपं स्थापयतु तत्र सः हतम् इति स्थाने बहुवचनरूपं स्थापयतु तत्र हतम् इति पदस्य बहुवचनं किमस्ति
मन्यन्ते
न न तत्र सः हतं मन्यते इति कर्मपदं बहुवचने स्थापयतु
तेन
न न कर्मणि प्रयोगम् इदानीं मास्तु कर्तृप्रयोगरूपं वदतु सः हतं मन्यते इदानीं सः हतं स्थाने बहु हतान् मन्यते मन्यते इदानीं कर्मणि रूपं किं भवति तेन
तेन हताः मन्यन्ते
मन्यन्ते इति तावदेव अस्तु समीचीनम् अस्तु अग्रे शोभा भगिनी
महोदय क्षत्रियः युद्धं लभते तत्र लभते अपि आत्मनेपदं क्षत्रियः क्षत्रियेण युद्धः इति युद्धः पुंलिङ्गे
युद्धः युद्धः इति मन्ये
लभते एव
लभते न तत्र लब् इति धातुः
तत्र लब् योगः या योगः ते लभ्यते भवति
हा लभ्यते इति हा समीचीनम्
अस्तु तत्र सः हतं मन्यते अनुवादं करोतु महोदय किञ्चित् मनसि क्लिष्टजाता इत्युक्ते सः मन्यते लघुवाक्यं हतं तु इत्युक्ते हतं अत्र तु कर्मपदं किन्तु
अन्यः अन्य कोऽपि अस्ति सः हतम् इति एषः मन्यते
अस्तु अस्तु सः तं मन्यते
हा तत्र अन्य कोऽपि अस्ति तत्र युद्धे एषः अपि अन्यः तत्र द्वयोः मध्ये युद्धः भवति एषः चिन्तयति अस्तु अहं तत्र अन्यं मारितवान् अस्मि अतः तत्र एषः चिन्तयति अहं तं हतं कृतवान् इति तत्र अहं सः हतम् इति मन्यते चिन्तयति हा सः चिन्तयति
यदा सः गच्छति हतं मन्य सः पलयति
हा 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 सत्यं हा
तत्र तेन अस्ति चेत् अर्थः किम्
तेन हतः
तेन
न न सः इति नास्ति तत्र तेन इति एव सः इति स्थाने तेन हतः मन्यते अत्र प्रायशः एतत् अस्तु भगिनि एतत् चिन्तयतु तत्र न न न तत्र नामानि स्थापयामः अस्तु
मृगः इति
अस्तु तत्र कोऽपि अस्ति व्याधः अस्ति अस्तु व्याधः अस्ति अपि सिंहः अस्ति अस्तु इदानीं व्याधः सिंहं हतं मन्यते
अस्तु हतं मन्यते इदानीं प्रथमपुरुषे क्षमतां तत्र
इदानीं कर्मणि रूपं किं भवति व्याधेन
व्याधेन सिंहः
हतः 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 यतोहि विशेषणविशेषभावः
तादृशम् एतस्मिन् वाक्ये किमपि हतं हतः तत्र व्याधः व्याधेन इति अभवत् तत्र सः इति तेन न भवति वा महोदय तेन हतः
तदेव भवति तेन हतः मन्यते इति कर्मणि रूपमस्ति यत् वाक्यं दत्तमस्ति तत्र तस्य कर्मणि रूपं तेन हतः मन्यते
मन्यते इत्युक्ते तेन हतं मन्यते
न न न हतमिति न सः हतः मन्यते
हतः क्षमतां तेन हतः मन्यते सः इत्युक्ते तत्र किमपि स्थापयितुं शक्नुमः वा महोदय
तत्र हतः कः इति तत्र यः हतः सः
तेन सः हतः मन्यते इत्यपि भवितुमर्हति खलु
तदेव
सः इति
पृच्छन्ति
महोदय किन्तु तेन सः इति अस्ति चेत् अर्थः भिन्नः खलु
तेन सः
नाम सः इति तत्र सकारः हकारः इति खलु
न न सः सः न न सकार विसर्ग अस्ति इदानीं तत्र
विसर्ग
द्वौ स्तः अन्ये अन्ये सः अन्ये एकः
अस्तु 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 इदानीम् इदानीम् अवगच्छामि अस्तु इदानीं शोभोगिनी भवती तत्र सः तत् 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 वक्तुं शक्नुमः अतः शोभोगिनी भवती तत्र सः इति विसर्ग विसर्गसः इति अस्तु 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 मम मम चिन्तनमासीत् तत्र किमर्थं हकारः इति सत्यं भगिनि हतः इति कः हतः सः हतः इति अतः तत्र तेन सः हतः मन्यते इति सत् समीचीनं भगिनि हा वाक्ये न न वाक्ये तत्र तं हतम् इति नासीत् अतः तत्र अहं
तत्र महोदय यदि अहम् अर्जुनः अपि कर्णः इति स्थापयामि अर्जुनः अर्जुनेन कर्णः तत्र सः इत्यस्य अर्जुनेन कर्णः हतः मन्यते इति सम्यक् अस्ति किल
सम्यक् अस्ति सम्यक् अस्ति भगिनि हा तदेव अस्ति हा हा तत्र अर्जुनः कर्णं हतं मन्यते अर्जुनेन कर्णः हतः मन्यते तेन अर्जुनेन सह कर्णः हतः मन्यते
आम् सत्यं तर्हि सम्पूर्णं भवति विशेषणत्वेन
हा विशेष हा अतः समीचीनं समीचीनं वा भगिनि
आं महोदय
अस्तु हा गीताञ्जलि भगिनि प्रश्नः आसीत् वा
न न अधुना तु अवगतं इत्युक्ते मम प्रश्न इत्युक्ते तत्र विशेषणपदं दत्तं विशेष्यं नास्ति चेत् मम प्रश्नः तदेव
सत्यं भगिनि हा केवलं हा तत्र सः हतम् इति हा अस्तु इदानीं इदानीं भवति एव इति हा
मन्यते नवरूपाणि आत्मनेपदी कर्मणि प्रयोग कर्तृप्रयोग कर्मणि प्रयोग
समानमेव सत्यं भगिनि समानमेव
विकरणप्रत्यय यकार अस्ति या इति अस्ति अत्रापि या इति अस्ति गुणः न भवति अत्रापि अत्रापि गुणः न भवति अत्र किमपि न
हा अतः तत्र एत कस्मिन् गणे अस्ति महोदय यकारः इति
न दिवादिगणे दिवादिगणे
दिवादिगणे
दिवादिगणे अस्ति
अतः तत्र आत्मनेपदि
किञ्चित् भिन्ना भवति इकार अथवा उकार अस्ति चेत्
किन्तु एतत्तु तत्र हलन्तरं मन् इति
अतः
अपि अपि आत्मनेपदी धातुः एव अस्ति तत्र परस्मैपदी धातुः अस्ति चेत् अपि किञ्चित्
भिन्न भवति खलु
आत्मनेपदी हा अतः किन्तु एतत्तु तत्र आत्मनेपदी धातु हा मन्यते
किञ्चित् तत्र भ्रमः भवति अस्माकं
हा तत्र अतः तत्र मन्यते इति अस्ति चेत् तत्र न जानीमः तत्र कर्मणि वाक्यं वा हा कर्तृवाक्यं वा
सः मन्यते इति सः मन्यते इति कोऽपि वदति चेत् तत् समीचीनं नास्ति इति वक्तुं न शक्नुमः
न जानीमः न
जानीमः
अतः तत्र सावधानम् अपेक्षितमस्ति तत्र दिवादिगणे आत्मनिपदि धातु अस्तु सूर्यकुमारी भगिनी भवती अग्रे तत्र कृष्णः इति अग्रिमेपुटे हा
अग्रिमपुटे कृष्णः मार्गं सूचयति धातुः कृष्णेन मार्गः सूच्यते
सूच्यते हा सूच्यते समीचीनं भगिनि हा कृष्णेन
मार्गः
कृष्णेन मार्गः सूच्यते सूच्यते समीचीनं हा अस्तु अग्रे रघुनन्दस्वामी
शिष्यः गुरुं सेवते शिष्येन गुरुः सेव्यते
हा शिष्येन गुरुः सेव्यते अस्तु तत्र कविः अस्ति चेत् तत्र कविः गुरुं सेवते अस्ति चेत्
कविना गुरुः सेव् सेव्यते एव खलु
सेव्यते अस्तु इदानीं तत्र कवयः गुरुं सेवते अस्ति चेत् सेवन्ते कवयः गुरुं सेवन्ते
कविभिः गुरुं
गुरुः गुरुः
सेव्यते गुरुः सेव्यते
सेव्यते एव समीचीनम् अस्तु हा अस्तु अग्रे रघुपतिमहोदय
सैनिकः शत्रुं ताडयति ताडयति इति सैनिकेन शत्रुः ताड्यते इति
तत्र ताड् इति
ताड ताड ताड्
तत्र ताडय ताडयते इति वा अथवा ताड्यते इति वा तत्र
तड् नास्ति वा धातु
ताड् ताडयति
ताड् इति दत्तमस्ति महोदय
तत्र ताडेव ताडेव अस्ति तट् अकारस्य लोपः भवति वा
एकेन
चित्रेण ताडयते वा ताडयति क्षम्यतां ताडयति
तड् इति धातु दत्तमस्ति महोदय तत्र
न तत्र कर्मणि एतत्तु
ताडयति
क्षम्यतां महोदय ताडय इति ताडि इति धातु तड् धातु चुरादिगणीय चुरादि भवति यत्
हा सत्यं महोदय चुरादि तत्र हा चुरादि एव अस्ति ताड्
ताड् इति भवति वा ताड् ताडि ताड्
तड् इति एव धातु साक्षात् धातु तु तड् इति अस्ति हा
ताड्यते
निजन्तरूपमपि ताडयति कर्त्री अपि ताडयति
ताड्यते
ताड्यते एव दत्तमस्ति हा ताड्यते एव
दत्तमस्ति कथयति कथ
हा कथ्य कथयति कथ्यते इति एव अस्ति हा सत्यं महोदय हा अतः तत्र सैनिकः शत्रुं ताडयति
सैनिकेन शत्रुः ताड्यते इति
ताड्यते इति हा समीचीनं हा अपि तत्र सैनिकः इति स्थाने तत्र राजा अस्ति चेत् तत्र राजा शत्रुं ताडयति
राजा शत्रुं ताडयति इदानीं राज्ञा इति
समीचीनं महोदय राज्ञा शत्रुः ताड्यते ताड्यते समीचीनम् अस्तु अग्रे गीताञ्जलिभगिनी तत्र तदेव वाक्यं तत्र राजा इति स्थाने तत्र नेता शत्रुं ताडयति
महोदय प्रश्नः पृच्छामि वा
अस्तु पृच्छतु महोदय
तड् इति धातु अस्ति चेत् तर्हि ताड् कथम् अभवत् महोदय
तत्र मम पार्श्वे तु उत्तरं नास्ति तत्र किन्तु तत्र प्रायशः तत्र किम् तत्र प्रक्रिया का इति तत्र न जानामि महोदय तत्र ताडयति इति तत्र चुरादि हा चुरादि अस्ति इति कृत्वा
तत्र चुरादिगणिच् निच् अस्ति खलु अतः अत अकारस्य अचोर्णिति इत्यनेन तत्र दीर्घ अभवत् वृद्धिः
दीर्घः अस्तु किन्तु महोदय तत्र कर्तृप्रयोगे अपि तत्र चुरादिगणे हा
निच् एव भवति खलु अतः यदा निच् निच्
दातु एव तत्र निच् अस्ति एव सत्यं सत्यं
निच् अस्ति एव भवति वा
अस्तु 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 चुरादिगणे अस्ति अतः
अतः
अस्तु अस्तु रघुवीरेन्द्रस्वामी
खलु महोदय
किं महोदय
निच् अस्ति निश्च अस्ति इति कृत्वा ताडी भवेत् खलु
आमाम्
हा अतः तत्र ताडी अतः तत्र यकारः ताड्यते इति तत्र
न न निचे लोपः भवति निचे लोपः भवति तत्र यक् प्रत्यये परे निच् लोपः भवति ईकारस्य लोपः भवति
ओ अतः तत्र केवलं ताड्यते इति एव
ताड् एव भवति
लोपः ताड्यते अतः तत् अतः एव तत्र ताड् अस्तु ताडि इति ताड इति तत्र सम्यक् नास्ति अतः तत्र ताडि इति एव भवेत् अथवा ताड् इति भवेत्
ताड् इति भवेत्
अस्तु अस्तु अतः अस्तु समीचीनम् अस्तु अन्य कोऽपि प्रश्नः
कर्तरि अस्ति चेत् ताडि, कर्मणि अस्ति चेत् ताड् वा?
तत्र महोदय तत्र
ताडि, ताडि योग शप् विकरणप्रत्यये भवति, अथवा शप् विकरणास्त्र भवति, अथवा शप् विकरणप्रत्यये चेत् ताडे भवति, ताडे योग ताडय अनन्तरं भवति ताडयति इति रूपं, ताडयति अथवा ताडयति, अत्र विकरणप्रत्यये नागच्छति खलु?
रघुवीरेन्द्रस्वामी तत्र तड् इति एव धातुः, किन्तु तत्र चुरादिगणे अस्ति इति कृत्वा तत्र निझन्तमेव भवति, अतः तत्र तड् इति स्थाने थाड्
चुरु इति धातु, चुरु इति धातुः अस्ति खलु, चोर् इति नास्ति, चुरु इति धातुः अस्ति, चोरयति इति भवति खलु,
तादृशं ताड् इति तत्र, अतः तत्र पठति पाठयति इव तत्र निजन्तरूपं तादृशम् अत्र
चुरुदातोः निजन्त इदानीं कर्मणि चोर्यते इति भवति,
चोरय चोर्यते,
चोर्यते भवेत्, चोरीति न चोर्यते खलु,
चोर्यते इति चिन्तयामि महोदय,
चोर्यते एव भवेत् एकवारं, चुर् एक
खण्ड्यते इत्येव भवति, चुरादिगणीय खण्ड, खण्ड
खण्ड अत्र उपादायं नकार अस्ति खलु, अकार नास्ति खलु, खाण्ड्यते न भवति,
अस्तु सत्यम्,
चोर्यते इति अस्ति महोदय, चोर्यते चोरयति कर्मणि प्रयोगे चोर्यते इति अस्ति,
आम् अत्र चोरि इति भवति धातु, चोरि इति धातुः अस्ति इदानीं चुरादिगणे धातुः अस्ति, चोरि इति धातुः अस्ति इदानीं यक् विक्रप्रत्यये तत्र ईकारस्य लोपः भवति निजन्तस्य नीच् प्रत्ययस्य लोपः भवति, अतः चोर् इति एव अवशिष्यते, चोर्यते इति भवति,
ओ चोर्यते, अस्तु 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 अस्तु,
तथैव अत्र ताड इति
लोपः
भवति,
समीचीनं,
पूर्वं कार्यं भवति यदा णिच् यदा योजयामः तत् कार्यं भवति, तत् भवेत् एव,
धन्यवादः, चाल्यते समीचीनम्, उत्तमम् उदाहरणं भगिनी, धन्यवादः, चाल्यते, तेन चाल्यते, तेन वाहनं चाल्यते, सत्यं, अस्तु इदानीं तत्र गीताञ्जलि भगिनी पठन्ती आसीत् वा तथा, अस्तु अस्तु वदतु भगिनि,
प्रश्नः,
ओ तत्र तत्र नेता शत्रुं ताडयति, नेता शत्रुं ताडयति,
नेतृ अस्ति तत्र रुकारान्त अस्ति, नेत्रा शत्रुः ताड्यते,
समीचीनं भगिनि, अस्तु समीचीनं, अस्तु अग्रे तत्र शोभभगिनी अग्रिमं वाक्यम्,
आं महोदय, केशवः विभूतियोगं कथयति, तत् इति धातुः, तत्र केशवेन विभूतियोगः कथ्यते,
कथ्यते
अस्ति, कत् योगः या कथ्यते,
कथ्यते केशवेन विभूतियोगः
कथ्यते,
कथ्यते समीचीनं भगिनी, अस्तु अग्रे सूर्यकुमारी भगिनी,
महोदय, रथी सैन्यम् आलोकते, अपने पदधातुः रथी, रथी रथ्या,
अस्तु तत्र प्रथमतया तत्र सैन्यम् आलोकते इति तत्र तद्भागं कर्मणि रूपं परिवर्तयतु,
सैन्यः आलोक्यते,
आलोक्यते, इदानीं समीचीनम्, इदानीं तत्र रती इति अस्ति, तत्र प्रातिपदिकं किम् इति वदतु,
तत्र सैन्यः इति अस्ति वा,
सैन्यः इति एव, सैन्यः एव उक्त,
सैन्यं
सैन्यः इति उक्तं
नास्ति वा,
सैन्यम् एव प्रायः, सैन्यम् एव
रति द्विवचनं महोदय
एकनिमिषः अस्तु तत्र सैन्यः
सेना इत्यस्य भावे सैन्यं भवति इति वा
न ओ अस्तु सैन्यम् इति नपुंसकलिङ्गे एव अस्ति सैन्यं सैन्यम् अस्तु सैन्यं हा सैन्यमेव अस्ति भगिनि हा अतः तत्र सैन्यम् आलोक्यते सैन्यम् आलोक्यते इति इदानीं तत्र रति इति अस्ति तत्र प्रातिपदिकं किं तत्र सैन्यं सर्वम् अस्ति अतः तत्र प्रसङ्गं दृष्ट्वा तत्र रति इति युक्ते किम् इति चिन्तयतु रति इति पदस्य प्रातिपदिकं
रथं चालयति
तादृशं किन्तु यः अथवा यस्मिन् तत्र तत्र यस्य अथवा यस्मिन्
यस्मिन्
रथः
यस्मिन् रथः
यस्य अथवा यस्मिन् रथः अस्ति सः
रति
रति रति तत्र रतिन् प्रातिपदिकम् इनि प्रत्ययः रतिन् इति गुणि गुणिन् हा गुणिन् पुल्लिङ्गपदं पुल्लिङ्गपदं यतोहि तत्र सैन्यम् अस्ति तत्र रति इति तत्र रतिदेवी नास्ति अत्र
सो ओके
अतः तत्र रतिन् इति
रतिना
हा समीचीनं रतिना सैन्यम्
आलोक्यते
आलोक्यते समीचीनं भगिनि हा रतिना सैन्यम् आलोक्यते समीचीनं भगिनि हा इदानीं तत्र रघुवीरेन्द्रस्वामी इदानीं तत्र रति सैन्यम् आलोकते तत्र कर्तृपदस्य बहुवचनरूपं वदतु
रथयः
न न न रति इति इदानीमेव उक्तं तत्र किं प्रातिपदिकं किं प्रातिपदिकं किं रति इति पदस्य
रथिन्
हा अतः तत्र बहुवचने किम् अस्ति गुणी हा गुणी गुणिनः रति
गुणी गुणिनौ गुणिनः रथिनः
रतिनः हा अतः वाक्यं किं रतिनः सैन्यं
सैन्यम् आलोक्यन्ते
आलोकन्ते आलोकन्ते कर्मणि कर्तृप्रयोगे हा रतिनः सैन्यम् आलोकन्ते इदानीं कर्मणि प्रयोगे गुणी गुणिनौ गुणिनः गुणिनं गुणिनौ गुणिनः गुणिना गुणिभ्यां गुणिभिः अतः
रतिभिः
रतिभिः
सैन्यं सैन्यः न सैन्यं महोदय नपुंसक
सैन्यं 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 हा सत्यं महोदय सैन्यं
रतिभिः सैन्यम् आलोक्यते
आलोक्यते एव अस्ति समीचीनं हा अस्तु अग्रे रघुपतिमहोदय
हा महोदय जनाः इन्द्रजालं वीक्षन्ते इति अस्ति जनैः इन्द्रजालः प्रायः इन्द्रजालः वीक्ष्यते इति
वीक्ष्यते हा तत्र वीक्ष्यते हा इति
इन्द्रजालः इति
इन्द्रजालः वा महोदय न जानामि
जालः इति प्रायः जालः इति जालः एव अतः इन्द्रजालः एव प्रायः
इन्द्रजालं हा अस्तु महोदय
जालं जालः एव प्रायः जालः इति पुल्लिङ्ग् अस्ति चेत् तद् भवति इन्द्रजालः
नो चेत् इन्द्रजालम् इति अस्तु तत्र किन्तु तत्र पूर्वं तत्र जनाः इति स्थाने किम् अभवत्
जनैः
जनैः हा समीचीनं जनैः इन्द्रजालः अथवा इन्द्रजालं वा तत्र वीक्ष्यते वीक्ष्यते समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनि
कृष्णः भक्तान् इच्छति कृष्णेन भक्ताः इष्यते भक्ताः इष्यन्ते
हा भक्ताः इष्यन्ते समीचीनम् अस्तु शुभभगिनी अग्रे
आं महोदय तामसगुणयुक्तः अकार्यं करोति तामसगुणयुक्तेन अकार्यः क्रियते
क्रियते अकार्यः क्रियते अकार्यः क्रियते समीचीनम् अपि तत्र बहुवचने तत्र तामसगुण गुणयुक्ताः अकार्यं
कुर्वन्ति तामसगुणयुक्ताः अकार्यं कुर्वन्ति तामसगुणयुक्तैः अकार्यः क्रियन्ते
हा क्रियते क्रियन्ते समीचीनं
क्रियन्ते क्रियन्ते
क्रिय हा तत्र कार्यम् एव अस्ति भगिनि अकार्यं हा अतः
क्रियते एव तत्र अकार्याः सन्ति चेत्
न न तत्र अकार्यम् इति नपुंसकलिङ्गपदमेव अस्ति
अकार्याणि सन्ति चेत् क्रियन्ते भवति
हा किन्तु अत्र अकार्यम् इति अतः तत्र तामसगुणयुक्तैः
अकार्यः
अकार्यम् अकार्यं नपुंसकलिङ्गपदं
नपुंसक क्षम्यतां तामसयुक्तैः अकार्यं क्रियते एव
क्रियते एव अस्ति क्रियते हा समीचीनं हा अस्तु अग्रे सूर्यकुमारी भगिनी
धूमः वह्निम् आवृणोति उरुधातुः धूमेन वह्निः
तत्र कर् क्रूधातुः क्रियते ब्रूधातुः किं भवति
व्रयते
न न क्रूधातुः क्रियते इति भवत्
व्रियते
न न अग्रिमे पुटे दत्तमस्ति पश्यतु भगिनि व्रियते इति तत्र अधोभागे तत्र कोष्टकम् अस्ति खलु अग्रिमे पुटे नयति नीयते करोति क्रियते धरति ध्रियते हा व्रियते इदानीं तत्र उपसर्गः अपि अस्ति
आव्रियते
हा धूमेन
वह्निः आव्रियते
आव्रियते हा एषः एतत् उदाहरणं प्रसिद्धमस्ति भगिनि धूमः वह्निम् आवृणोति यदि भवती तत्र न्यायशास्त्रम् अथवा तत्र कुत्रापि तत्र अनुमानविषये अनुमानम् इति ज्ञानं कथं तस्य रूपं किम् अस्ति इति तत्र ज्ञातुम् इच्छति तत्र एतदेव उदाहरणं धूमः वह्निम् आवृणोति इति यत्र यत्र धूमः तत्र तत्र वह्निः इति बहुवारं भवती शृणोति तत् अस्तु रघुवीरन्दस्वामी अग्रे
भीष्मः शङ्खं धमति
हा अग्रिमे पुटे दत्तमस्ति ध्म इति धातुः हा ध्मायते इति रूपं हा
अग्रिमपुटे एवं धमति ध्मायते भीष्मेन शङ्खः ध्मायते
हा भीष्मेण इति प्रायशः तत्र णत्वम् अस्ति महोदय पवर्गीय अस्ति खलु तत्र मूर्धन्यषकारस्य अनन्तरं मकारः अतः णत्वं भीष्मेण शङ्खः ध्मायते ध्मायते अस्तु रघुपतिमहोदय अन्तिमं तत्र करोतु महोदय तदनन्तरं विरमामः
सर्वः कर्मफलम् अनुभवति सर्वः सर्वेण कर्मफलम् अनुभूयते इति
हा अनुभूयते हा कर्मफलम् अनुभूयते हा
सर्वे
इति हा सर्वेण यतो तत्र सर्वः इति एकवचने एव अस्ति हा अस्तु इति
अथवा
सर्वाः अस्ति चेत् तत्र सर्वे आसीत् चेत् तत्र सर्वैः इति भवति हा हा समीचीनं महोदय हा अस्तु रघुवीरेन्द्रस्वामी तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारः धन्यवादश्च
नमस्कारः धन्यवादः सर्वेभ्यो नमः
धन्यवादः
अग्रिमवर्गे मिलामः नमस्कारः धन्यवादः भगिनी धन्यवादः नमस्कारः